तस्मै श्रीगुरवे वंशा कौशतृभ्यश्च पिता सिन्धुभ्यैव च पतितानां पावनेभ्यो वैष्णवेभ्यो नमो महावदन्याय कृष्णप्रेमसुधाय कृष्णाय कृष्णचैतन्यनाम्ने गौररक्षिते गुरवे गौरचन्द्राय राधिकायै सदाने कृष्णाय कृष्णभक्ताय सर्वभक्ताय भक्त्याविहीनाय पराजलज्ञै चित्तास्य कामादितरङ्गमध्यै कृपामयीं त्वां शरणं प्रपन्ना नमस्ते चरणं यं प्रभजन्तमनुपेतमपेतकृत्य द्वैपायनो गिरहकातरया पुत्रेति तन्मयतया सर्वोऽभिनेतुः तं सर्वभूतहृदयम् तवैवास्मि न जीवामि त्वया विना इति दिव्यं राधे तन्मयमाम्।